प्रियव्रतस्य प्रियपुत्रभूतादाग्निध्रराजादुदितो हि नाभि त्वां दृष्टवान् इष्टदमिष्टिमध्ये तवैव तुष्ट्यै कृतयज्ञकर्म अभिष्टुतस्तत्र मुनीश्वरैस्त्वं राज्ञस्वतुल्यं सुतमर्थ्यमाना स्वयं जनिष्येऽहमिति ब्रुवाणः तिरोदधाबर्हिषि विश्वमूर्ते नाभिप्रियायामथमेरुदेव्यां त्वमंशतो भूरिषभाभिधान अलोकसामान्यगुणप्रभावप्रभाविदाशेषजनप्रमोद त्वयि त्रिलोकीभृति राज्यभारं निधाय नाभि सह मेरुदेव्या तपोवनं प्राप्य भवन्निषेवी गतः किल आनन्दपदं पदं ते इन्द्र त्वदुत्कर्षकृतादमर्षात्पवर्षनास्मिन् अजनाभवर्षे यदा तदा त्वं निजयोगशक्त्या स्ववर्षमेन व्यदधा सुवर्षं जितेन्द्रदत्तां कमनीं जयन्तीम् अथोद्वहन् आत्मरदाशयोऽपि अजीजनस्तत्र शतं तनूजान् येषां क्षितीशो भरतोऽग्रजन्मा न वाभवन् योगिवरा न वान्ये त्वपालयन् भारतवर्षखण्डान् सैकात्वशीतिस्तव शेषपुत्रास्तपोबलाल् भूसुरभूयमीयु उक्त्वा सुतेभ्योऽथ मुनीन्द्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गं स्वयं गता पारमहंस्य वृत्तिमथाः जडोन्मत्तपिशाचचर्यां परात्मभूतोऽपि परोपदेशं कुर्वन् भवान् सर्वनिरस्यमान विकारहीनो विचचारकृत्स्नां महीमहीनात्मरसाभिलीनः शयुव्रतं गोमृगकाकचर्यां चिरं चरन्नाप्यपरं स्वरूपं दवाहृदाङ्गः कुटकाचले त्वं तापान् ममापागुरु वातनाथा।